मुतते नमः जात इश शिवतमा शिवं बभूवते धनुः शिवा शरव्या जात वतया नो रुद्र मृळया जाते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनु वाशन्तमया गिरिशन्ताभिचाकशीः यामिशुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहि कुंसि पुरुषम् जगत शिवे नवचसा त्वा गिरिशार्च्छा वदामसे यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत अध्यवोचदधि भक्ता प्रथमो दैव्योऽभिषक अहेकश्च सर्वा जम्भयत् सर्वाश्च यातु धान्यः असौ व्यस्ताम्रो अरुण उत बभृत्सु मङ्गलः ये क्षेमागुम् रुद्र अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेड एमहे असव्यो वसर्पति नीलग्रेवो विलोहितः उतैनम् गोप अदृशन्न दृशन्न दहार्यः उतैनम् निष्वा भूतानि स दृष्टो मृळयातिनः नमो अस्तु नीलग्रेवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करण्णमः प्रमुञ्च धन्वनस्त्वमुभयोराज्ञयोर्ज्या याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशते शुधे निषेर्य शल्यानाम् मुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतत्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् वदये नमो नमः सस्पिञ्जराय द्विषेमदे पथेनाम् पतये नमो नमो बभ्रुषाय व्याधिनेन्नाम् पतये नमो नमो हरिकेशायोपवेदिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायातताविने क्षेत्राणाम् पतये नमो नमः सूताया हन्त्य यवनानाम् पतये नमो नमो रोहितायस्थ पतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषायात् क्रन्दयते पत्तीनाम् पतये नमो नम कृत्स्नवेताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निर्व्याधिनाभ्याधिनीनाम्
पतये नमो नमः ककुभाय निषङ्गिने सेनानाम् पतये नमो नमो निषङ्गिन इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाविभ्यो जिगाकुम् सद्भ्योमुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् शरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्योतन्वाविभ्यश्च भो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च भो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च भो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च भो नमो नम आसीनेभ्यश्च यानेभ्यश्च भो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नम तिष्ठद्भ्योऽथावद्भ्यश्च भो नमो नम सभाभ्यः सभापतिभ्यश्च भो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च भो नमः नम आभ्यादिनेभ्यो विविद्यन्तेभ्यश्च भो नमो नव उगनाभ्यस्त्रकुम्हतेभ्यश्च भो नमो नमो कृत्सेभ्यो कृत्सपदिभ्यश्च भो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च भो नमो नमो गणेभ्यो गणपतिभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च भो नमो नमो रथिभ्यो रथेभ्यश्च भो नमो नमो रथेभ्यो रथपदिभ्यश्च भो नमो नमः सेनाभ्यस्येनानिभ्यश्च भो नमो नमः क्षत्रभ्यः सङ्ग्रहीतृभ्यश्च भो नमो नमः सक्षद्भ्यो रथकारेभ्यश्च भो नमो नमः कुलालेभ्यः कैमारेभ्यश्च भो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो सण्वकृभ्यश्च भो नमो नमो मृगयुभ्यश्वनिभ्यश्च भो नमो नम स्वभ्यश्वपदिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शैवाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीधुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वैशेयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे च जिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्व्याय च वस्वन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नम श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेनाय चाशुरथाय च नम शूराय चावभिन्दते च नमो वैमिने च वरूथिरे च नमो बिल्मिने च कवचिरे च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिरे चेषुधिमते च नमः तीक्ष्णे शवे चायुधिरे च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईध्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नम अग्रे वधाय च दूरे वधाय च नम हन्त्रे च हनीयसे च नम वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नम शम्भवे च मयोभवे च नम शङ्कराय च मयस्कराय च नम शिवाय च शिवतराय च नम तीर्थ्याय च कूल्याय च नम पार्याय च वार्याय च नम प्रतरणाय चोत्तरणाय च नम आतार्याय च लाद्याय च नम शष्प्याय च फेन्याय च नम सिकत्याय च प्रभाह्याय च नम इरिण्याय च प्रपथ्याय च नम किगुंशिराय च शयनाय च नम कपर्दिने च पुलस्तये च नमो कोष्ठ्याय च गृह्याय च नम सल्प्याय च गेह्याय च नम काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्प्याय च नमः पावं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आखिदते च
प्रक्षिदते च नमो वः किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनेहदेभ्यो नम आविवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो एषाम् किञ्चन ममत या ते रुद्रशिवा तनु शिवा विश्वाह भेषजी शिवा रुद्रस्य भेषजी तया नो मृडजीवसे इमाकुम् रुद्राय तवसे गवर्धिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् ऋणानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुरायजे पिता तदश्यामतव रुद्र प्रणीतौ मानो मान्दमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो मदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वदे भविष्वन्तो नमसा विधेमते आरात्ते गोघ्न उत पूरुषग्ने शयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यता च नः शर्म यच्च द्विबर्हा सुहिश्रुतम् गर्दश दैयुवानम् मृगन्न भीममुपहत्तुमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य एतिर्वृणत्तु परित्वेषस्य दुर्मतिरघायो अवस्थिरा भगवद्भ्यस्तनुष्वमेढ्वस्तोकायतनयाय मृडया मेढुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृत्रिम् वदान आचर पिनाकम् बिभ्रदाहि विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामेशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या अन्तरिक्षे ये दिव्येषामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रति शीर्दशोरिशीर्दशोर्द्वास्तेभ्यो नमस्ते नो मृळयन्तु तेयम् विष्मो यश्च नो द्वेषितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् य रुद्रो अग्नव्य अप्सुय ओचरीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తవష్టు హియశ్విషు సుదన్ వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమో బిర్దేవమసురందువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తర అయం మే విశ్వమే సజోయగం శివాభిమర్శన ఓ శాంతి 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 సంచ మే మయశ్చ మే ప్రియంచ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంత చ మే ధర్త చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాతం చ మే సూశ్చ మే ప్రసూశ్చ మే క్షీరం చ మే లయశ్చ మృతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే ఓం శాంతి శాంతి శాంతిః ఓం షన్నో మిత్రశ్రం వరుణః షన్నో భవత్వయమా షన్న ఇంద్రో బృహస్పతిః షన్నో విష్ణురుక్రమః నమో బ్రహ్మణే నమస్తే వాయో త్వమేవ ప్రత్యక్షం బ్రహ్మాసి త్వమేవ ప్రత్యక్షం బ్రహ్మ వదిష్యామి ఋతం వదిష్యామి సత్యం వదిష్యామి తన్మామవతు తద్వక్తారమవతు అవతు మా అవతు వక్తారం ఓం శాంతి శాంతి శాంతిః శీక్షాం వ్యాఖ్యాస్యామః వర్ణస్వరః మాత్రాబలం సామసంతానః ఇత్యుక్తః శీక్షాధ్యాయః సహ నౌ యశః సహ నౌ బ్రహ్మవర్చసం అథాతః సగుంహితాయ ఉపనిషదం వ్యాఖ్యాస్యామః పంచస్వధికరణేషు అధిలోకమధిజ్యోతిషమధివిద్యమధిప్రజమధ్యాత్మం తామహాసగుంహిత ఇత్యాచక్షతే అథాధిలోకం పృథివీ పూర్వరూపం ద్యౌరుత్తరరూపం ఆకాశసంధిః వాయుస్సంధానం ఇత్యధిలోకం అథాధిజ్యోతిషం అగ్నిపూర్వరూపం ఆదిత్య ఉత్తరరూపం ఆపస్సంధిః వైద్యుతస్సంధానం ఇత్యధిజ్యోతిషం అథాధివిద్యం ఆచార్యపూర్వరూపం అంతేవాస్యుత్తరరూపం విద్యా సంధిః ప్రవచనకుం సంధానం ఇత్యధివిద్యం అథాధిప్రజం మాతాపూర్వరూపం పితోత్తరరూపం ప్రజా సంధిః ప్రజననగుం సంధానం ఇత్యధిప్రజం అథాధ్యాత్మం అధరాహను పూర్వరూపం ఉత్తరాహనురుత్తరరూపం వాక్ సంధిః జిహ్వా సంధానం ఇత్యధ్యాత్మం ఇతి మా మహాసగుంహితాః యేవమేతా మహాసగుంహితా వ్యాఖ్యాతా వేద సంధీయతే ప్రజయా పశుభిః బ్రహ్మవర్చసేనాన్నాద్యేన సువర్గేణ లోకేన యశ్చందసామృషభో విశ్వరూపః ఛందోభ్యోధ్యమృతాత్ సంబభూవ సమేంద్రో మేధయా స్పృణోతు అమృతస్య దేవధారణో భూయాసం శరీరం మే విచర్షణం జిహ్వా మే మధుమత్తమా కర్ణాభ్యాం భూరి విశ్రువం బ్రహ్మణ కోశోసి మేధయా పిహితః శృతం మే గోపాయ ఆవహంతేరి తన్వానా కుర్వాణాచీరమాత్మనః వాసాకుం శివ భగావశ్చ అన్నపానే చ సర్వదా తతో మే శ్రియమావహ లోమశాం పశుభిః సహ స్వాహా ఆమాయంతు బ్రహ్మచారిణః స్వాహా విమాయంతు బ్రహ్మచారిణః స్వాహా ప్రమాయంతు బ్రహ్మచారిణః స్వాహా దమాయంతు బ్రహ్మచారిణః స్వాహా శమాయంతు బ్రహ్మచారిణః స్వాహా యశోజనేసాని స్వాహా శ్రేయాన్వస్య సోసాని స్వాహా తం త్వాభగ ప్రవిశాని స్వాహా సమాభగ ప్రవిశ స్వాహా తస్మిన్ సహస్రశాఖే నిభగాహం త్వయి మృజే స్వాహా యథా ప్రవతాయంతే యథా మాసా అహజ్జరం ఏవం మాం బ్రహ్మచారిణః ధాతరాయంతు సర్వత స్వాహా ప్రతివేశోసి ప్రమాభాహి ప్రమాపద్య స్వా భూర్భువః సువరితి వా ఏతాస్తిస్రో వ్యాహృతయః తాసామోహస్వైతాం చతుర్థే మాహాచమస్య ప్రవేదయతే మహ ఇతి తద్బ్రహ్మా స ఆత్మా అంగాన్యన్యా దేవతాః భూరితి వా అయం లోకః భువ ఇత్యంతరిక్షం సుభరిత్యసౌ లోకః మహ ఇత్యాదిత్యః ఆదిత్యేన వావ సర్వే లోకా మహీయంతే భూరితి వా అగ్నిః భువ ఇతి వాయుః సుభరిత్యాదిత్యః మహ ఇతి చంద్రమా చంద్రవసా వావ సర్వాణి జ్యోతిగుం శివహీయంతే భూరితి వారుచః భువ ఇతి సామాని సుభరితి యజోగుంషి మహ ఇతి బ్రహ్మ బ్రహ్మణా వావ సర్వే వేదా మహీయంతే భూరితి వై ప్రాణః భువ ఇత్యపానః సుభరితి వ్యానః మహ ఇత్యన్నం అన్నేన వావ సర్వే ప్రాణా మహీయంతే తావా ఏతాశ్చతస్రశ్చతుర్థా चतस्रश्चतस्रोऽव्याहृदयः तायो वेद स वेद ब्रह्म सर्वे स्मै देवा बलिवावहन्ते स य एषोऽन्तर्हृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतिष्ठति भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्म सत्यात्मप्राणारामम् वन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्व पृथिव्यन्तरिक्षम् द्यौर्दिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमानक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रम् मनोवाक्त्वक् चर्ममागुंसग्स्नावास्थिमज्जा एतदधिविधाय ऋषिरवोचत पाङ्गम् वा इदगुम् सर्वम् पाङ्गेनैव पाङ्गस्पृणोतीति ओमिति ब्रह्म ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिहस्मवा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुंशोमिति शस्त्राणि शगुंसन्ति ओमित्यध्वर्युप्रतिघरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रभक्षन्नाह ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अहम् वृक्षस्य रेरिव कीर्तिपृष्टम् गिरेरिव ऊर्ध्वपवित्रो वाजिने वत्स्वमृतमस्मि द्रविणगुंसवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोच्याचार्योऽन्ते वासिनमनुशास्ति सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् माप्यवच्छेत्सेः सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रमदितव्यम् देवपितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये केचास्मच्छ्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया धेयम् अश्रद्धया धेयम् श्रेयाधेयम् ह्ययाधेयम् ध्येयाधेयम् संविदाधेयम् अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणाः संहर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मका वा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः अथाभ्याख्यातेषु ये तत्र ब्राह्मणा संहर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मका वा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः एष आदेशः एष उपदेशः एषा वेदोपनिषद् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रः शम्वरुणः शन्नो भवत्वर्यव शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नभो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मावेत् तद्वक्तारमावेत् आवेन्मा आवेद्वक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ ब्रह्मात्मन्वद सृजत तदकामयत समात्मनापद्येयेते आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमगुम् भूत प्रत्यशृणोत् स दशहूतो भवत् दशहूतो हवैरामैषः तम् वा एतम् दशहूतगुम् सन्तम् दशहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम् भूतः प्रत्यशृणोत् स सप्तभूतो भवत् सप्तभूतो हवैरामैषः तम् वा एतम् सप्तभूतगुम् सन्तम् सप्तभूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्टगुम् भूतः प्रत्यशृणोत् स षड्भूतो भवत् षड्ढोतो हवैना वैषः तं वा एतं षड्ढोतगुंसन्तम् षड्ढोतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमगुम् भूत प्रत्यशृणोत् स पञ्चभूतो भवत् पञ्चभूतो हवैना भैषः तम् वा एतम् पञ्चभूतगुंसन्तम् पञ्चभूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थगुम् भूत प्रत्यशृणोत् स चतुर्भूतो भवत् चतुर्भूतो हवैना भैषः तम् वा एतम् चतुर्भूतगुंसन्तम् चतुर्भूतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः तमब्रवीत् त्वम् वै मेनेदिष्टम् भूत प्रत्यश्रौषेः त्वरेणानाख्यातारयते तस्मान्नुहैनागुश्चतुर्भूतारमित्याचक्ष्यते तस्मादुश्रोतः पुत्राणागुम् हृद्यतमः नेदिष्टो हृद्यतमः नेदिष्टो ब्रह्मणो भवति य एवम् वेद आत्मने नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महि महेशाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति।